गणेशाय नमः। ॐ वागर्ताविव सम्प्रक्तौ वागर्तप्रतिपत्तये जगदः पितरं वन्दे पार्वतीपरमेश्वरौ। ॐ एनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
उत्तमं, धन्यवादः भगिनि।
धन्यवादः।
धन्यवादः। अस्तु, अद्य किं पाचनं कदा कृतवती सुधा भगिनी? अन्यथा अद्य किम्
अहं प्रातःकाले पाचनं करोमि।
कस्य वादनतः?
अष्टवादन अपि अष्ट सार्ध अष्टवादनतः पर्यन्तं कृतवती।
पुनः वदतु।
अहं सार्ध षड्वादनतः सार्ध अष्टवादनपर्यन्तं पाकं कृतवती।
उत्तमम् उत्तमं। दीप्षिका भगिनी, भवती अद्य पाककार्यं कदा कृतवती?
अहं पाकं कार्यं प्रातःकाले दशवादनतः सपाद एकादशवादनपर्यन्तं पाकं कार्यं करोमि।
करोमि वा? कृतवती।
करोमि। अच्छा, अकरोत्।
अकरोत्
कीदृशपदम्?
अकरोत् कीदृशपदम्?
अकरोत्। अकरोत्। अच्छा, अकरोत् माने किया
अस्ति भगिनी, लङ्लकार अस्ति चेत् किम्? अकरवम्। अहम् इत्युक्ते अकरोत् इत्युक्ते रामः अकरोत्, सीता अकरोत्, त्वम् अकरोः, अहम् अकरवम्।
अच्छा, अहम् अकरवम्। अहम् अकरवम्।
आवाम् अकुर्व। आवाम् अकुर्व, वयम् अकुर्म। नमस्ते सरोजा भगिनी, स्वागतम्।
नमस्कारः भगिनि, क्षम्यतां विलम्बेन आगच्छामि।
नास्ति चिन्ता नास्ति। अस्तु, अद्य शैलजा भगिनी, भवती पाचं अद्य पाचं कदा समये अकरोत्?
शुभः दशवादने पाकं करोमि।
इत्युक्ते इत्युक्ते कस्य वादनतः?
दशवादनतः सार्ध सार्ध एकादशवादनपर्यन्तं पाकं करोमि.
पाकम् अकरवं लङ् रूपमस्ति चेत् अकरवम्. वयं तु जानीमः लङ् रूपं किं. लङ् इत्युक्ते किं?
लङ् इस् भविष्यत्काल.
न न लङ् भगिनि,
हा सोरि भगिनि, लङ् इस् भूत्काल. भूत्काल
भूतकालार्थकः अस्ति लङ्. अस्तु उत्तमम्. अद्य किं कृत किं कुर्मः? पुटसङ्ख्या वदतु शैलजा भगिनी. अद्य पुटसङ्ख्या किम्?
आं भगिनि, तमे पुटे चतुश्चत्वारिंशत् वा?
चतुस्तु वयं कृतवन्तः. अद्य किं कुर्मः?
त्रयोचत्वारिंशत् यदि तर्हि सोरि
षड्
तः पर्यन्तं
तदपि तदपि वयं समाप्तम्. अधुना किं सुधा भगिनी?
16.1
आ इति षट्चत्वारिंशत् तमे पुटे षट्चत्वारिंशत्
षट्चत्वारिंशत् तमे पुटे. अस्तु अधुना हा दीपशिखा भगिनी आरम्भं करोतु.
आं भगिनि, अत्र कर्णाटकमुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति. अत्र यः कर्णाटकमुख्यमन्त्री मन्त्रिणः मुख्यमन्त्री मुख्यमन्त्रिणः अच्छा मुख्यमन्त्रियों के कार्यक्रमस्य मुख्यमन्त्रियों के कार्यक्रम की का विवरण है. कार्यक्रमस्य षष्ठी विभक्ति लघुवाक्यं विवरणम् अस्ति.
कस्य विवरणम्?
किसका विवरणं? कस्य विवरणं? कार्यक्रमस्य विवरणम् अस्ति.
कस्य कार्यक्रमस्य?
कस्य कार्यक्रमस्य? किसका कार्यक्रम? कर्णाटकमुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति.
कीदृशपदं मन्त्री मन्त्रिणः? सुधा भगिनी,
अहं मन्ये बहुवचनम्.
अस्तु नकारान्त
सकारान्तपुंलिङ्ग
नकारान्त गुणिवत् गुणि शब्दमञ्जर्याम् एकवारं पश्यतु अस्ति वा न वा. नकारान्तपदं पुटसङ्ख्या किम्? पुटसङ्ख्या 39 तमे पुटे अन्तिमभागे करिन् करिन् अस्ति. अस्ति वा न वा?
अस्ति भगिनि.
आं भगिनि, अस्ति नकारान्तपुल्लिङ्ग
करिन् पदम् एकवारं पठतु सुधा भगिनि.
आं भगिनि, नकारान्तपुंलिङ्ग करिन् शब्दः करी करिणौ करिणः हे करिन् हे करिणौ हे करिणः करिणिं कर्णिं करिणिं करिणिं करिणौ करिणम् ओके करिणं करिणौ करिणः करिणा करिभ्यां करिभिः करिणे करिभ्यां करिभ्यः करिणः करिभ्यां करिभ्यः करिणः करिणोः करिणां करिणि करिणोः करिषु
समानेव मन्त्रिन् मन्त्रिन् अपि समानेव दीप्षिका भगिनी सर्वाणि रूपाणि वदतु
नकारान्तपुल्लिङ्ग करिण् शब्द करि करिणौ करिणः
भगिनी मन्त्रिन् मन्त्रिन् समानेव
अच्छा मन्त्रि अच्छा ओके हा मन्त्रिण् तो मन्त्री मन्त्रिणौ मन्त्रिणः हे मन्त्रिण् हे मन्त्रिणौ हे मन्त्रिणः मन्त्रिणं मन्त्रिणौ मन्त्रिणः मन्त्रिणा मन्त्रिणभ्यां मन्त्रिणभिः करिन् करिन् करिभ्याम् अच्छा मन्त्रिभ्यां मन्त्रिभिः मन्त्रिणे मन्त्रिभ्यां मन्त्रिभ्यः मन्त्रिणः मन्त्रिभ्यां मन्त्रिभ्यः मन्त्रिणः मन्त्रिणोः मन्त्रिणां मन्त्रिणी मन्त्रिणोः मन्त्रिषु
उत्तमम् अद्य अत्र वाक्ये अत्र कर्णाटकमुख्यमन्त्रिणः इति विभक्तिरूपं किम्
मन्त्रिणः
उत्तमं पुनः वदतु सुधा भगिनी
षष्टी एकवचनं
तत् रूपं कुत्र कुत्र आयाति विभक्तिरूपाणि मध्ये
इत्युक्ते किमर्थं भगिनि
मन्त्रिणः इति रूपं वारं वारम् आयाति तत्र
आम् आम् आम्
विभक्त्याम्
आम्
कुत्र कुत्र आयाति
प्रथमविभक्ति बहुवचनं पञ्चमी विभक्ति एकवचनं षष्ठी विभक्ति एकवचनं
अपि च
द्वितीया विभक्ति बहुवचनं
अपि च
सम्बोधनमपि आम्
इत्युक्ते अतः कति वारम् आयाति तत्र
पञ्चवारं भगिनि
पञ्चवारम् आयाति करिणः अपि च मन्त्रिणः कथं जानीमः दीक्षिका भगिनी पञ्चवारं यदि एकं पदम् आयाति विभक्त्यां कथं जानीमः अत्र किं समीचीनम् अस्ति अत्र
उसका वो जो नेक्स्ट वर्ड है ना कार्यक्रमस्य उससे पता लगेगा
उत्तमम् इत्युक्ते सन्दर्भे
सन्दर्भे
सन्दर्भः कः अत्र तु कस्य कार्यक्रमस्य इत्युक्ते षष्ठी एव समीचीनम् कस्य कार्यक्रम प्रश्नवाचक यदि वयं यदि प्रश्न उदेति प्रश्नः कः कस्य कार्यक्रम कस्य अस्ति चेत् अत्र कर्णाटकमुख्यमन्त्रिणः इत्युक्ते कर्णाटकमुख्यमन्त्रिणः समस्तपदमस्ति.
षष्टी षष्टी मे किं किं अच्छा किं पुल्लिङ्ग का कस्य है वो षष्टी में तो ये अच्छा कार्यक्रमस्य पुल्लिङ्ग अच्छा मकरान्त पुल्लिङ्ग किं शब्द का कस्य है ये ओके ओके
पुल्लिङ्ग वा नपुंसकलिङ्ग वा कस्य
हाँ दोनों का कस्य ओके
अस्तु अग्रिमं वाक्यं शैलजा भगिनी पठतु.
आं भगिनि. तत् दृष्ट्वा सः कदा कुत्र तिष्ठति इति लिखतु.
लघुवाक्यं किम्
इति लिखतु.
इति लिखतु. प्रश्नः कः अधुना?
प्रश्नः कर्णाटकमुख्यमन्त्री मन्त्रिणः.
भगिनि भगिनि भवत्याः वाक्यं किं? तत्
दृष्ट्वा. तत् दृष्ट्वा प्रश्नः तद् दृष्ट्वा इति कर्णाटकमुख्यमन्त्रिणः कदा कुत्र तिष्ठति इति लिखतु इति प्रश्नः अस्ति.
अस्तु लघुवाक्यम् इति लिखतु. मम प्रश्नः अग्रिमं प्रश्नः कः लघुप्रश्नः कः?
इति दृष्ट्वा लिखतु. तत् दृष्ट्वा इति लिखतु.
इति किं लिखतु? किं लिखतु आएगा क्या? इति किं लिखतु बोल सकते हैं.
इति लिखतु
तो किं लिखतु इति क्या लिखोगे ऐसा लाइक दिस ऐसा पूछ सकते हैं. इति लिखतु
इत्युक्ते किं कृत्वा लिखतु किं लिखतु इति लिखतु किं लिखतु.
अच्छा अच्छा किं लिखतु में इट विल बी इति लिखतु.
हाँ इति लिखतु अस्ति चेत् किं लिखतु भगिनी शैलजा भगिनी तदेव
किं लिखतु इति कदा कुत्र तिष्ठति इति इति लिखतु.
कदा कुत्र तिष्ठति इति लिखतु. प्रश्न उदेति अग्रिमं प्रश्नः कः?
किं दृष्ट्वा लिखतु.
न न कथं जानीमः दृष्ट्वा अस्ति तत्र.
तद् दृष्ट्वा सः कदा तद् दृष्ट्वा
प्रश्नः प्रथमं तु मनसि प्रश्नः कः इति एकवारं पृच्छतु. किमर्थं कदा कुत्र तिष्ठति आङ्ग्लभाषायां वदतु.
वेर् एण्ड् वेन् मन्त्री इस् सिटिङ्ग्
or नो मन्त्री यु डोण्ट् नो कदा कुत्र तिष्ठति इत्युक्ते किं?
कदा कुत्र इत्युक्ते the place they are asking about where and when the place and the time.
Astu angla bhashayam anuvadam karotu kada kutra tishtati ityukte kim. Sahayam karotu Sudha bhagini.
Bhagini where when we don't know who it is so blank स्टेस् इति लिखतु.
न ब्लाङ्क् न ब्लाङ्क् न वेर् वेर् वेन् ही शी आर् इट् स्टेस् प्रश्न
ही आर् इट् स्टेस्
तु ही शी आर् इट् स्टेस् इट् इत्युक्ते वेरि राङ्ग् वर्ड् आङ्ग्लभाषायां तु समीचीनमेव नास्ति. किन्तु नपुंसकलिङ्गं वा पुंलिङ्गं वा स्त्रीलिङ्गं वा किमपि तिष्ठति. सः कः सा का तत् किं न जानीमः. प्रश्न उदेति किं?
कः कदा कुत्र कः का किं कदा कुत्र तिष्ठति इति लिखतु
इति प्रश्नः उदेति. अवगतं शैलजा भगिनी?
आं भगिनि, सः कदा कुत्र तिष्ठति इति लिखतु.
सः प्रश्नः कः भगिनि?
किं कदा कुत्र तिष्ठति इति लिखतु. किं कदा कुत्र तिष्ठति, किं किम् इत्युक्ते इति वाक्ये सः वा सः?
तदपि समीचीनम्. इत्युक्ते यदि वयं न जानीमः लिङ्गं लिङ्गं
नपुंसकलिङ्गं
यदि वयं न जानीमः पुरुष वा महिला वा किमपि वा न जानीमः तदनन्तरं नपुंसकलिङ्गं समीचीनम् इत्युक्ते अत्र प्रश्न उदयति. वदतु
कः कः कदा कुत्र तिष्ठति.
अस्तु समीचीनं, किन्तु अहं किं वदामि, यदि वयं न जानीमः लिङ्गं किम् इत्युक्ते
नपुंसकलिङ्गं
किमपि न जानीमः तदनन्तरं प्रश्नः कः कथं
प्रश्नः लिङ्गं न जानीमः किं किं योजयित्वा वा योजयामि वा
वदतु
किं कदा कुत्र तिष्ठति
इति प्रश्नः उदेति. उत्तरं कः?
सः बेङ्गलूरु मैसूरु इति नगरे तिष्ठति.
न प्रश्नः कः? किं
प्रश्नः
तिष्ठति प्रश्नः इत्युक्ते
प्रश्न किं कदा कुत्र तिष्ठति आङ्ग्लभाषामे अनुवादं करोमि वा भगिनि?
करोतु.
हू वेर् अण्ड् वेन्
हू अस्ति चेत् उत्तरं किम्?
हू अस्ति चेत् इति वाक्ये कर्णाटकमुख्यमन्त्रिणः कर्णाटकमुख्यमन्त्री
इति वाक्ये तु कर्णाटकमुख्यमन्त्री नास्ति, केवल किम् अस्ति, सः अस्ति एव.
सः अस्ति, आं भगिनि. किम् अस्ति चेत् सः इति वाक्ये सः ददति.
वयं जानीमः सः कदा कुत्र तिष्ठति. अस्तु, अधुना प्रश्न सः कः?
एक मिनट, अपन ऐसा पूछ सकते हैं कम कम इति लिखतु, ऐसा प्रश्न बना सकते हैं. कम मतलब क्या लिखना है, ऐसे जैसे इति लिखतु के बाद नेक्स्ट प्रश्न अपन पूछ सकते हैं क्या. कम इति लिखतु, कम मतलब क्या, क्या लिखना है इसके जैसे,
क्या नहीं, किसको लिखना है, किसको,
हाँ किसको लिखना है ऐसे. जैसे इति इति लिखतु बोला अपन ने, मतलब लिखतु के लिखतु के लिए क्या लिखना है ना. तो कम लिखतु, फिर कम इति लिखतु पूछ सकते हैं.
पुंलिंगम अस्ति चेत् कम लिखतु, नपुंसकलिङ्गं किं लिखतु,
किं किं लिखतु,
अस्ति चेत्
काम लिखतु,
काम लिखतु. समीचीनम् समीचीनम्. अस्तु, अधुना वयं जानीमः पुरुषः अस्ति, सः कदा कुत्र तिष्ठति इति लिखतु. अधुना प्रश्नः उदेति, प्रश्नः कः?
किं किं कदा कुत्र तिष्ठति इति लिखतु, किं लिखतु.
भगिनि, वयं तु जानीमः अधुना सः अस्ति, किं तु नास्ति. सः अस्ति, वयं
सः अस्ति चेत् कः वा भगिनि, कः कदा कुत्र तिष्ठति.
अधुना प्रश्नः कः?
प्रश्नः
सः कः?
सः कः?
सः कः? सः कः वदतु.
सः कर्णाटकमुख्यमन्त्री मन्त्रिः
मन्त्रिः
मन्त्री. सो फर् एव्री वर्ड् वी हेव् टु मेक् अ क्वश्चन्. सः कः?
नास्ति भगिनि मन्त्री एव करिन्न करी मन्त्री करिः न
हा मन्त्री दीर्घ ईकारान्त
अस्तु अधुना प्रश्न उदेति किमपि कृत्वा करणीयं वा किमपि कृत्वा लेखनीयं वा कुछ करके लेखना है क्या
एतत् कोष्टके अस्ति चेत् इति दृष्ट्वा लिखतु
सः कः सः तु मुख्यमन्त्री अधुना प्रश्न उदेति अन्य किमपि अस्ति वा किमपि करणीयं वा everything in the sentence is not covered yet
एतत् दृष्ट्वा इस् नाट् इट् कवर्ड् आं भगिनि
there are words in the sentence so प्रश्न उदेति
किं दृष्ट्वा किं दृष्ट्वा और तत् दृष्ट्वा तत् कोष्टके दृष्ट्वा
कोष्टकं दृष्ट्वा
कोष्टकं तं
कोष्टकं दृष्ट्वा
तत् कोष्टकं दृष्ट्वा सः कर्णाटकमुख्यमन्त्रिः मन्त्री कदा कुत्र तिष्ठति इति लिखतु लोट् लकार रूपं सकर्मकक्रियापदमस्ति लिक् धातुतः आयाति
उत्तमम् अस्तु सुधा भगिनी प्रथमं पठतु
जनवरी एकतः षट् पर्यन्तं सप्तमपर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति
उत्तमम् एकतः सप्तपर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति अग्रिमं पठतु पापाजी
भगिनी एकं पर्यन्तं वा एकपर्यन्तं वा पर्यन्तं विशेषणविशेषभावम् अस्ति वा नास्ति वा
तिथि कीदृशपदम् एक किम् एक तु तिथि अस्ति न
हा
तिथि कीदृशपदम्
एक तिथि इस् दीर्घ इकारान्त वा तिथि
पुंलिङ्गमपि अस्ति स्त्रीलिङ्गमपि किन्तु अत्र तु स्त्रीलिङ्गमेव तिथि इत्युक्ते डेट्
हा
तिथि इत्युक्ते डेट्
रैट् ओके आं भगिनि सो नपुंसकलिङ्गं न भवति
नपुंसकलिङ्गं नास्ति अत्र सो एक अधुना कथं वदनीयम् एका तिथितः
एका तिथितः
सप्ततिथिपर्यन्तं जनवरी एका तिथितः सप्ततिथिपर्यन्तं
भगिनि एकः प्रश्नः इति आर्डिनल् यूस् करणीयं वा और् एका प्रथमतिथितः इति आङ्ग्लभाषायां फ्रम् फस्ट् टु सिक्स् सेवेन्त् इति वदिष्यामः
समीचीनं किन्तु हिन्दीभाषायाम् एक से सात् तारीख् तक् अपि समीचीनं न
आम्
हिन्दीभाषायां कथं वदनीयम्
आम् आम् एक तारीख् से सप्ततारीख
से अपि च तमिल भाषायां वदतु
ஒன்னாம் தேதியிலிருந்து ஏழாம் தேதி வரை சேம் டு ஹிந்தி ஒன்லி
அப்படி தெலுங்கு வதத்து சலுஜா
ஆம் பகினி சேம் பகினி ஒக்கட்டோ தாரீக் நுஞ்சி பில்சே ஏடோ தாரீக் வரக்கு சோ சேம் லைக் ஹிந்தி
ஹிந்தி தாரீக் தாரீக் ஒன்லி நாட் லைக் ஃபர்ஸ்ட்
நோ ஒக்கட்டவ இஸ் ஃபர்ஸ்ட்
किन्तु ऊहां करोमि यथा हिन्दी अस्ति तदैव वदं वयं वदनीयम् इति मन्ये ऊहां करोमि एव इत्युक्ते एका तिथितः सप्ततिथिपर्यन्तम् इति मन्ये
तिथि इस् डिफ्रेण्ट् फ्रम् इस् डिफ्रेण्ट् फ्रम् डेट् भगिनि और् वी केन् यूस् द सेम् फर् द
इत्युक्ते डेट् एव पुंलिङ्गम् अस्ति चेत् डे आफ् द मन्त् अत्र दत्तं स्पोकन् संस्कृत मध्ये इति दत्तम् एका तिथिः इत्युक्ते एका तिथिः इति भी समीचीनम् एका तिथिः एका तिथिः अन्यथा एका तिथितः सप्ततिथिपर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति अवगतम् पापाजी अग्रिमम् अस्ति वा
तारीख देख के बनाइए सेकंड सेंटेंस वही ना 7 से 13 मई
तो जनवरी प्रथम होता है सप्त पर्यंतम मुख्यमंत्री मैसूर नगरे तिष्ठति
पुनः वदतु उत्तमम् एकवारं पुनः वदतु उत्तमम्
जनवरी प्रथम होता है सप्त पर्यंतम मुख्यमंत्री मैसूर नगरे तिष्ठति
किन्तु तिथि किम् अष्ट तिथि किम् अस्ति
अष्टतः
अष्टतः नै थर्टीन्थ् है न त्रयोदश
अष्टतः त्रयोदश
पर्यन्तं
मैसूरुनगरे
उत्तम उत्तमम् अस्तु अग्रिमं पठतु दीक्षिका भगिनी
जनवरी चतुर्दशतः चतुर्दशतः सप्तदशपर्यन्तं मुख्यमंत्री धारवाड नगरे तिष्ठति
समीचीनं समीचीनं बीना भगिनी नमस्ते वक्तुम् इच्छति वा अग्रिम
नो भगिनी ऐ एम स्टिल स्ट्रगलिंग विद द नंबर्स
अस्तु सुधा भगिनी
आं भगिनी जनवरी अष्टादशतः विंशतिः पर्यन्तं गुल्बर्गनगरे तिष्ठति
उत्तमं शैलजा भगिनी
आप पूछिए पापा जी आप क्या पूछ रहे थे
यहाँ कह सकते हैं गुलबर्गे गुलबर्गे
तत्तु अपि समीचीनं गुल्बर्गे मैसूरु अस्ति चेत् ऊकारान्त अस्ति चेत् मैसूरौ किन्तु मैसूरौ तु समीचीनमेव किन्तु नगरम् अस्ति चेत् नगर योजयाम चेत् एव वदनीयम् इति समीचीनम् इति मन्ये. किन्तु गुल्बर्ग गुल्बर्गनगरे अपि समीचीनं, गुल्बर्गे अपि समीचीनं. यदि वयं जानीमः गुल्बर्ग कः तत्तु समीचीनं, न जानाति चेत् नगर वा ग्राम वा किम् अस्ति तत्र न जानामि चेत् गुल्बर्गनगरे अपि समीचीनं. किञ्चित् स्पष्टता ददाति.
सेक्युरिटि वाला आया था पूछने के लिए वैक्सीन कुछ लोग रहते हैं वैक्सीन हो गया दोनों
का. दीपशिखा भगिनी कृपया. अस्तु कस्य क्रमः?
मम क्रमः भगिनि. एकविंशतिः तः चत्वारिंशतिः पर्यन्तं मुख्यमन्त्रीः कोलारानगरे मुख्यमन्त्री कोलारानगरे तिष्ठति. कोलारानगरे
तिष्ठति. कोलारनगरे तिष्ठति. उत्तमं. दीप्शिका भगिनी अग्रिमम्.
आं भगिनि. आं भगिनि. पञ्च जनवरी पञ्चविंशतितः जनवरी पञ्चविंशति तः त्रिंशत् पर्यन्तं मुख्यमन्त्री मद्रासनगरे तिष्ठति या मद्रासे तिष्ठति.
तिष्ठति तिष्ठति तिष्ठति. उत्तमम्. अधुना एकः प्रश्नः पृच्छामि. सर्वे यथाशक्यं वदतु. अस्तु सुधा भगिनी, भवत्याः गतयात्रा किम् अस्ति, कुत्र कुत्र गतवती, किञ्चित् विवरणं करोतु भगिनि, वदतु किमपि.
आं भगिनि, names of the months I'm not very
वदतु किमपि भगिनि.
आम् जून् एकतः पञ्चदशपर्यन्तं कोयम्बत्तूरुनगरे अहं तिष्ठवती तिष्ठवती. जनवरी एकविंशतिः तः सप्तविंशतिः पर्यन्तं पळनीनगरे तिष्ठवती.
अस्तु भगिनि भगिनि, तिष्ठितवती समीचीनं वा इति प्रश्नः उदेति. धातु धातु किं?
स्था धातु.
स्था अस्ति चेत्
स्था अस्ति चेत् स्थापितवती
स्थापितवती. किञ्चित् क्लिष्टः जातः तत्र. तिष्ठितवती तु संस्कृतभाषायामेव नास्ति. स्थापितवती. अहं निवसति स्म.
निवसति
निवसति स्म. निवसति तु लट् रूपं. निवसति किन्तु निवसति स्म इत्युक्ते भूतकालार्थ
भूतकालार्थक.
लट् लट् योगः स्म अस्ति चेत् भूतकालार्थक भवति इत्युक्ते निवसति स्म. गतवती स्म. उत्तमम्. अग्रिमम् एकम् अन्यवाक्यं वदतु भगिनि.
विंशतिः तः पञ्च विंशतिः तः पञ्चविंशतिः पर्यन्तं पुनः कोयम्बत्तूरु नगरे निवसति स्म.
निवसति स्म. उत्तमम्. उत्तमं. धन्यवादः. अस्तु भगिनि. रामः कुत्र कुत्र गतवान्? कदा कदा गतवान्? न श्रूयते भगिनि. पापजी अस्ति वा?
हाँ, बोलना, पापा को बोलना है.
हाँ, रामः रामः कुत्र कुत्र गतवान्? कदा कदा गतवान्?
राम कहाँ कहाँ? हाँ, कुत्र कुत्र गतवान्?
कदा 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 गतवान्? किमपि तिथि योजयित्वा वदतु. वसन्त वसन्तकाले प्रथम दिवसे दिवसतः इत्युक्ते वसन्तकाल के प्रथम दिन से वसन्तकाल प्रथम दिनतः प्रथम तिथितः किमपि पापाजी प्रयत्नं करोतु.
वसन्तकाले प्रथम दिवसे तः
दिवसतः दिवसतः
सप्त दिवस पर्यन्तं बेङ्गलूरु बेङ्गलूरुनगरे तिष्ठामि.
तिष्ठति. रामः अस्ति चेत् तिष्ठति.
रामः रामः तिष्ठति.
रामः तिष्ठति. बेङ्गलूरुतः कुत्र गच्छति रामः?
रामः बेङ्गलूरुतः 8 जनवरी तिथे
8 जनवरी तः
8 जनवरी तः त्रयोदश पर्यन्तं मैसूरुनगरे तिष्ठामि.
तिष्ठति. रामः तिष्ठति. उत्तमं. भवत्याः यात्रा कदा आसीत्? कुत्र कुत्र गतवती? किञ्चित् विवृणोतु.
अहं अहं पञ्चदश जून् तः अष्टदशपर्यन्तम् अहं तिरुमालानगरे तिष्ठामि.
तिरुमाला नगरे. माला वा तिरुमाला वा?
हाँ, तिरुमाला नाम. तिरुमाला तिरुमाला है ना. तिरुमले सुधा भगिनी शैलजा भगिनी व्हाट डू वी से तिरुमाला. तिरुपति टेम्पल इज इन तिरुमाला ना.
तिरुमला.
हाँ तिरुमला ना. हाँ तिरुमला.
दीर्घ आवा तिरुमला वा?
TIRUMALA. Tirumala.
It doesn't help us.
No dirgam, bhagini.
Dirga nasti che.
Telugu, no. Yeah.
Tirumala nagarat saha. Nagare himapi.
Tirumala nagare tishthami.
Uttamam. Uttamam. Dhanyavada, bhagini. Astu, Shailaja, bhagini. Bhavatyaha yatra. कुत्र गतवती तत्र
अहं सार्वारि संवत्सरे आषाढमासे मासन्तः श्रावणमासं पर्यन्तं भारतदेशे तिष्ठति तिष्ठामि स्म आषाढमासे एकादशतः विंशतिपर्यन्तं काशी अरुणाचलं च गतवती स्म गच्छामि स्म
इत्युक्ते लट्
स्म आं भगिनि
उत्तमम् उत्तमम् अस्तु अन्य सर्वम् अवगतं वा अत्र प्रश्नः अस्ति इत्युक्ते पर्यन्तं कीदृशपदम्
नपुंसकलिङ्गं वा भगिनि
पश्यतु एकवारं कीदृशपदं पर्यन्तम्
पर्यन्तम् अव्ययपदम्
अव्ययपदमस्ति पर्यन्तम् अव्ययपदं सः कीदृशपदम्
सः अपि अव्ययपदम्
सर्वनाम पुल्लिङ्गपदम् पुल्लिङ्गशब्दः
पुल्लिङ्ग वा कथं
जानीमि स्तः अव्ययपदं
न भगिनि स्तः केवल स्तः
सः आं भगिनि तः पर्यन्तम् अव्ययम्
अव्ययम् अस्ति किन्तु पृथक् अव्ययं नास्ति इत्युक्ते पृथक् पदं नास्ति प्रत्यय इव अस्ति प्रत्यय इत्युक्ते सफिक्स् इत्युक्ते पृथक् पदं नास्ति नाट् अ सेपरेट् इट्स् नाट् अ वर्ड् इन् इट् सेल्फ् पर्यन्तं तु पदम् अस्ति सः प्रत्यय इव अस्ति प्रत्यय इत्युक्ते सफिक्स्
आं भगिनि
तदेव
सो या वि केन् यूस् दट् वर्ड् एट् विच् ऐ मीन् एट् एण्ड् आफ् एनी वर्ड् वि केन् यूस् दट् तः
तदेव सः पृथक् तु पदं नास्ति इति मन्ये ऊहामेव करोमि अत्र अस्तु अन्य किमपि ज्ञातव्यम् अंशं किम् इत्युक्ते सः पर्यन्तम् इति मनसि तिष्ठति चेत् वयं तु वाक्यं स्पष्टं करणीयमेव सः पर्यन्तम् अधुना वयं किं किं कृतवन्तः सः पर्यन्तं च एव इति अपि यदि तर्हि एते सर्वाणि पदानि कथं योजनीयम् इति पठितवन्तः कोऽपि प्रश्नः अस्ति तत्र विषये अग्रे सरामः वा
आं भगिनि
अस्तु अस्तु
किञ्चित् अभ्यासं कुर्मः चेत् प्रश्नः उदयति.
अहम् एकम् अन्वेषणं करोमि, एकम् अभ्यासं, तदनन्तरं प्रेषयामि रूपेण करोतु. किन्तु ह्यः तु एकं विशालगृहपाठं तु दत्तवती एव अहं. भवत्याः सम्भाषणं कुत्र कुत्र किं किं पदं परिचय सर्वं तु करणीयमेव. बहु विशालकार्यमिति मन्ये. ह्यः यत् वयं यत् अहं ददामि तत् अस्तु. अग्रिमं पुटे किम् अस्ति? माला अपि च गोपालः. अस्तु सरेजा भगिनी माला भवतु, गोपालः पापजी भवतु, आरम्भं करोतु एकवारम्.
आं भगिनि.
पर वो पिक्चर तो मैच ही नहीं कर रही है, वो माला तो माँ दिख रही है गोपाल जी.
एक बार हम पठतु. हाँ पठतु भगिनी
माला.
उसमें तो
बोलिए एक निमिष दीक्षा भगिनी. हाँ बदतु सरोजा
भगिनी. माला गोपाल गोपाल भवतः भवतः परीक्षा समीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु.
बोलिए पापा जी. गोपाल वाला
गोपाल वदति अद्य अहं मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनि.
भवतु भवतु गोपाल विद्यालये योगासन
माला
बोल रही है ना.
कौन बोलेगा?
शैलजा पढ़ रही है. आपको सुनाई नहीं दे रहा? ओ
कैन यू हियर मी भगिनी? बिकॉज
I can hear you, but Papa is not online.
Because
Papa
my internet is also not that good, so that's why I'm checking with you. Okay. And Mala, Bhavatu, Gopal, Vidyalaye, Yogasana Kakshya, Kada Arabhya Bhavishyati?
Gopala.
Gopala.
Bhavatu Gopala, Papaji.
माला परश्वः मम अवकाशः न भविष्यति, प्रपरश्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि. आं भगिनि. परश्वः मम आकाशः वा भगिनि का वा अवकाशवः वा अवकाशवः वा
अवकाशः न भविष्यति इति दत्तम्.
अवकाशः मम अवकाशः न भविष्यति, प्रप्रश्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि.
गोपाल वदतु अधुना. अस्ति वा पापाजी? नास्ति. अस्तु सुधा भगिनी वदतु गोपालः.
आं भगिनि. भगिनि मातुलस्य पत्रम् आगतं वा?
नैव भोः, अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम् एव.
अस्तु अधुना एकवारं पुनः पठामः. अस्तु सुधा भगिनी अपि बीना भगिनी. सुधा भगिनी माला वदतु.
गोपाल भवतः परीक्षा समीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु.
गोपालः अद्य अहं मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनी.
भवतु गोपाल, विद्यालये योगासनकक्षया कदा आरभ्य भविष्यति? कक्ष्या कदा आरभ्य भविष्यति?
गोपालः परश्वः आरभ्य भविष्यति.
परश्वः मम अवकाशः न भविष्यति, प्रपरश्वः आरभ्य अहम् अपि योगासनकक्षायाम् कक्ष्याम् आगमिष्यामि.
गोपालः भगिनी, मातुलस्य पत्रम् आगतं वा?
नैव भोः, अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम् एव.
अस्तु, किञ्चित् अवगतं वा? अस्तु, अधुना पुनः पठामः. दीक्षिका भगिनी माला, पपजी गोपालः, पुनः पठतु एकवारम्.
आं भगिनि. गोपाल भवतः परीक्षा गोपाल भवतः परीक्षा समीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु.
अद्य अहं मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनि.
भवतु गोपाल, विद्यालये योगासनकक्षा कदा आरभ्य योगासनकक्षा कदा आरभ्य भविष्यति?
परश्वः आरभ्य भविष्यति.
परश्वः मम अवकाशः न भविष्यति, प्रपरश्वः आरभ्य अहं पि योगासनकक्ष्याम् आगमिष्यामि.
भगिनि, मातुलस्य पत्रम् आगतं वा?
नैव भोः, अहं
हकार अस्ति, यकार नास्ति. प्रथम तु हकार अस्ति, पराह्यः.
पराह्यः, अहं पराह्यः आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम् एव.
अस्तु, किम् अवगतम् अत्र? किम् अभवत्? कोऽपि वक्तुम् इच्छति वा? स्वस्य वाक्यैः वदतु. कोऽपि प्रयत्नं करोतु. सुधा भगिनी आरम्भं करोतु. अत्र किम् अभवत्?
आं भगिनि, माला अपि च गोपालस्य मध्ये एकं सम्भाषणम् अस्ति. माला उक्तवती परीक्षा समीपम् आगता अस्ति इति कारणं इति कारणतः पठतु इति. गोपालः वदति अद्य अद्य न श्वः आरभ्य पठिष्यामि.
उत्तमं, धन्यवादः भगिनी. अत्र माला अपि गोपालमध्ये सम्बन्धः अस्ति वा? कीदृशसम्बन्धः भवितुमर्हति? कीदृशसम्बन्धः भवितुमर्हति तत्र द्वयोः मध्ये?
भगिनी मतलब अच्छा बहन है वो सिस्टर.
बालायाः अनुजः अस्ति गोपालः.
तदेव तदेव अनुजः अस्ति गोपालः. अनुजः माला अग्रजा. माला अग्रजा गोपालः अनुजः. तदेव उत्तमम्. अस्तु, गोपालः किं वद उक्तवान्? अहम् अद्य तु न करोमि किन्तु श्वः आरभ्य करोमि इति वदति. तदनन्तरं किम् अभवत् दीप्षिका भगिनी?
आं भगिनि, तदनन्तरं माला वदति कि माला पृच्छति, पूछती है ना?
बोल रही
नहीं, कोई प्रश्न है ना? विद्यालये विद्यालये योगासन कक्षा कदा आरभ्य भविष्यति? तो माला पृच्छति विद्यालये.
भगिनी समीकरणं किं करोति? धातु किं?
माला पृच्छति.
पृच्छति
प्रीकी पृच्छति पृच्छति नीचि पृच्छति
न नीचि न रु रे मूर्ध अस्ति तत्र. पृच्छति
हा पृच्छति हा पृच्छति. माला पृच्छति योगासन कक्षा योगासन कक्षा विद्यालये कदा कदा आरभ्य कब शुरू हो रही है योगासन योगासन कक्षा?
भविष्यति बोलना.
भविष्यति
कदा आरभ्य भविष्यति
कब शुरू हो रही है ना? हाँ कदा आरभ्य भविष्यति
होएगी भविष्यति होएगी
भविष्य कब शुरू होएंगी? हाँ
इति पृच्छति. तदनन्तरं गोपाल
इति पृच्छति तदनन्तरं गोपाल वदति योगासन कक्षा परश्वः मतलब परसों परश्वः
पृथक् पृथक् अक्षर अस्ति. प अस्ति, र अस्ति, चकार अस्ति, व अस्ति, विसर्ग अस्ति. पराश्वः
परश्वः. गोपालः वदति योगासनकक्ष्या परश्वः आरभ्यः भविष्यति.
आरभ्य आरभ्यः तु
आरभ्य आरभ्य भविष्यति. परसों शुरू होयेंगे.
उत्तमं. तदनन्तरं किम् अभवत् सरोजा भगिनी? स्वस्यैव वाक्यं वदतु अस्ति वा? नास्ति तत्र नास्ति. हा पापाजी तदनन्तरं किम् अभवत्?
वदति परश्वः मम अवकाशः न भविष्यति.
इत्युक्ते
मेरे पास परसों समय नहीं होगा.
अवकाशः न इत्युक्ते ओकेजन न,
छुट्टी नहीं है.
पॉसिबल न, टाइम न.
आश मतलब छुट्टी,
छुट्टी नहीं, छुट्टी करना ठीक नहीं है यहाँ पर.
अवेलेबिलिटी
कोई,
अच्छा
समय नहीं है, अवकाश नहीं.
अच्छा
समय वा स्पेस वा किमपि अवकाशः न भविष्यति. परश्वः मम अवकाशः न भविष्यति. तदनन्तरं किं किं वदति?
प्रपरश्वः आरभ्य अहमपि योगासनकक्षाम् आगमिष्यामि.
आगमिष्यामि, अस्तु अस्तु. तदनन्तरं गोपालः किं पृच्छति?
गोपाल कौन है?
नहीं, गोपाल ने आगे क्या बोला, फिर जवाब क्या दिया?
गोपाल वदति भगिनी मातुलस्य पत्रम आगतम वा.
इत्युक्ते किं?
गोपाल पृच्छति, गोपाल ने
पृच्छति वदति.
हाँ, क्या मतलब इसका?
क्या पत्र आ गया है ये बहन? मातुलस्य मामा का पत्र क्या आ गया है?
मामा नॉट मदर, मातुलस्य यथा कृष्ण अर्जुनस्य मातुलः कः?
कुंती.
मामा,
अच्छा मामा कृष्ण. हाँ
क्षमितां भगिनी, हैड टू कनेक्टेड बिकॉज़ द कनेक्शन इज नॉट गुड, सो आई
गुड टू लॉग ऑफ. हां हां हां,
नहीं
शकुनी मामा.
हां शकुनी, उत्तम.
अच्छा, शकुनी दुर्योधन के मामा है पापा, अर्जुन के नहीं. गांधारी के भाई है शकुनी.
अच्छा
तो अर्जुन के भी तो होंगे फिर.
अर्जुन की बात तो
हाँ. अस्तु अस्तु, मातुलः इत्युक्ते मामा, मामा इत्युक्ते कः? मामा इत्युक्ते कः? सुधा भगिनी वदतु.
मातृस्य भ्रातः.
हा, मातृस्य तु नास्ति, किन्तु समीचीनं वाक्यं किम्?
मातायाः.
मातायाः अपि नास्ति.
मामा, मामा कौन है होते, मामा कौन होते हैं?
दीक्षिका भगिनी, पापा को
मातृस्य भ्राता.
एक निमिष दीक्षिका भगिनी, पापा को सुनाई नहीं दे रहा क्या?
दे रहा.
हाँ, if we keep repeating in class then I don't know who is talking, no? अस्तु षष्ठी विभक्ति माता मातृ ऋकारान्त अस्ति, ऋकारान्त अस्ति चेत् षष्ठी विभक्ति किम्?
मातुः.
मातुः इत्युक्ते मातुलः कः? एकवारं वदतु परिभाषा का.
मातुः भ्रातुः, भ्राता.
भ्राता मातुलः, मातुः भ्राता किं मातुलः
मातुलः
अधुना किं मातुलस्य पत्रम् आगतं वा इत्युक्ते मातुलस्य षष्ठी विभक्ति मातुलस्य पत्रम् आगतं वा सरोजा भगिनी माला किम् उक्तवती तदनन्तरम्
आं भगिनि मातुलस्य पत्रम् आगतं वा नैव भोः अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती परन्तु न आगतम् एव
इत्युक्ते स्वस्यैः वाक्यैः एकवारं
माला सेस् नो ऐ एम् वेटिङ्ग् फोर् द लेटर् परह्यः आरभ्य परह्यः इस् डे बिफोर् डे Parahyah is not yesterday, but it is day before yesterday. From day before yesterday, I'm waiting for the letter. Lekin, parantu na agatam yo, but it did not arrive at.
Samskrita bhashayam vadatu.
Mala iti uktavati. Patram... पत्रं न आगतं अहं प्रतीक्षा परह्याः कः प्रतीक्षां कृतवती इति उक्तवती
कस्य आरभ्य प्रतीक्षां कृतवती
परह्यः आरभ्य फ्रम् डे बिफोर् यस्टर्डे
कति दिनाः
दिनद्वयं तः आरभ्य कृतवती प्रतीक्षां कृतवती
उत्तमम् अस्तु अवकाशः अवगतं सर्वे अस्तु एकः प्रश्नः पृच्छामि सुधा भगिनी भवत्याः अवकाशदिने कुत्र कदा कदा अस्ति भवितुम् अर्हति प्रतिदिने
प्रतिदिने मध्याह्ने एकवादनतः सार्धद्विवादनपर्यन्तम् अवकाशः भविष्यति
अस्ति अपि च
अस्ति आम्
अवकाशः अस्ति उत्तमं दीक्षिका भगिनी भवत्याः दिने अवकाशः कदा अस्ति प्रतिदिने
प्रतिदिने अवकाशः प्रतिदिने अवकाशः सपाद एकवादनतः त्रिवादनपर्यन्तम् अवकाशः अस्ति
उत्तमम् अस्तु भवत्याः अवकाशः कदा अस्ति पापजी ओ सोरि पापजी तु भवतः अवकाशः कदा अस्ति पापजी
मम पूर्णदिनम् अवकाशः अस्ति
सम्पूर्णदिने अवकाशः एव अस्ति
पूर्णदिने अवकाशः
उत्तमम् उत्तमं शैलजा भगिनी भवत्याः दिने कदा कदा अवकाशः अस्ति?
मम मां सप्ताहे चत्वारि दिनानि अर्ध एकादशः वादने तः वादनं तः चत्वारि वादनं पर्यन्तं चत्वारि दिनानि अवकाशम् अस्ति. नोट् चत्वारि फोर् डेस् इस्
पुनः वदतु एकवारं.
सप्ताहे सार्ध एकादशवादनं तः चतुर्वादनं पर्यन्तं चत्वारि वादनं पर्यन्तं चत्वारि दिनानि चत्वारि दिनं
चत्वारि दिनानि समीचीनं
चत्वारि दिनानि चत्वारि दिनानि अवकाशं अस्ति.
अवकाशाः सन्ति
अवकाशाः सन्ति.
अस्तु अस्तु बिना भगिनी भवत्याः दिने अवकाशः कदा अस्ति? भवत्याः दिने अवकाशः कदा अस्ति?
अवकाशः मीन्स् अगेन् सारी ऐ नो यु सेड् इट् आल्रेडि
टैम् फ्री टैम्
वाट् एम् ऐ डूयिङ्ग् ड्यूरिङ्ग् मै फ्री टैम्?
भवत्याः इत्युक्ते षष्ठी बिलाङ्गिङ्ग् टु यू
दिने
अवकाशः फ्री टैम् कदा अस्ति? वेन् इस् योर् फ्री टैम् इति अहं पृच्छामि. चिन्ता मास्तु.
वेन् इस् मै फ्री टैम् ऐ हव् नो ऐडिया.
अस्तु अस्तु चिन्ता नास्ति
चिन्ता. सारी I'll probably write down the answer and send it to you.
Ha na na bhavati tu arambhe eva abhyasa pustake arambatah eva karotu bhagini tadeva.
Ha ya ya okay
samichina tadeva. Astu agrimam pute ha dikshika bhagini patatu.
Ha aam bhagini ha etasmin सम्भाषणे एकं द्वे त्रीणि चत्वारि अत्र रमेशस्य सङ्गीतकक्ष्यां पितृव्यस्य इति परिवर्तनं कृत्वा सम्भाषणं पुनः लिखतु.
इत्युक्ते लघुवाक्यं
लघुवाक्यं सम्भाषणं पुनः लिखतु.
सम्भाषणं लिखतु पुनः लिखतु
पुनः लिखतु.
अग्रिमं प्रश्नः कः?
अग्रिमं प्रश्नः सम्भाषणं पुनः लिखतु भाषणं पुनः लिखतु मतलब अग्रिमं प्रश्नः कैसे लिखना है होगा ना, कैसे लिखना है, कैसे वाला क्या आएगा, कैसे अगला प्रश्न तो कैसे का बनता है ना, कैसे लिखना है नहीं,
इति परिवर्तनं
तो कैसे
कृत्वा इत्युक्ते कम कृत्वा संभाषणं लिखतु, किम कृत्वा
नहीं, कृत्वा लाने के लिए तो कुछ प्रश्न पूछना पड़ेगा.
इत्युक्ते किमपि कृत्वा लिखामि वा किमपि कृत्वा लिखामि वा अन्यथा किं कृत्वा
कृत्वा मतलब कर लिया ना
करके
करके हाँ
ये इत्युक्ते कं कृत्वा लिखतु इति प्रश्न उदेति कं कृत्वा कम इत्युक्ते
इसको करके
क्या करके
क्या करके अच्छा क्या करके ऐसा प्रश्न बनता है कम कृत्वा अच्छा कम कृत्वा संभाषणम पुनः लिखतु क्या करके संभाषण को फिर से लिखना है कम कृत्वा ओके कम कृत्वा संभाषणम पुनः लिखतु तो उत्तर परिवर्तनम कृत्वा संभाषणम पुनः लिखतु
परिवर्तनम कृत्वा कस्य परिवर्तनम कृत्वा ईदृश परिवर्तनम प्रश्न उदेति कीदृशपरिवर्तनम् अन्यथा कस्य परिवर्तनम् समीचीनं
कस्य परिवर्तनं कृत्वा सम्भाषणं पुनः लिखतु तो कस्य परिवर्तनं में अत्र रमेशस्य संगीतकक्ष्यां पितृव्यस्य इति परिवर्तनं कृत्वा संभाषणं पुनः लिखतु
चत्वारि पदानि वाक्यं संपूर्णं करोतु
चत्वारि पदानि एकं द्वे त्रीणि चत्वारि संख्या एकं द्वे त्रीणि चत्वारि संख्या पदानि इति परिवर्तनं कृत्वा संभाषणं पुनः लिखतु
चत्वारि पदानि परिवर्तनं कृत्वा लिखतु चत्वारि पदानि परिवर्तनं कृत्वा लिखतु चत्वारि पदानि कीदृश विभक्ति
चत्वारि पदानि द्वितीय विभक्ति पदानि चत्वारि पदों को है ना तो द्वितीय विभक्ति
चत्वारि पदानि
पदानि बहुवचन बहुवचन द्वितीय विभक्ति
परिवर्तनं कृत्वा पुनः लिखतु चत्वारि पदानि कानि प्रश्न उदेति चत्वारि पदानि कानि
अच्छा चत्वारि पदानि कानि चत्वारि पदानि कानि मतलब किसको नहीं तो चत्वारि पदानि कानी में हो जाएगा ना कानी माने किसको तो कानी में कानी परिवर्तनम कृत्वा में चत्वारि पदानि उत्तर आएगा ऐसा है
सुनो तो भगिनी चत्वारि पदानि कानि अस्तु शैलजा भगिनी विभक्ति रूपम किम
चत्वारि पदानि द्वितीय विभक्ति बहुवचन
एकं वाक्यं वदामि चत्वारि पदानि कानि
चत्वारि पदानि इति सन्दर्भे वा
भगिनी अहम् एकं वाक्यं वदामि चत्वारि पदानि कानि इत्युक्ते
चत्वारि पदानि इति मित्रस्य एकं योगासनकक्ष्यां
भगिनी शृणोतु एकवारं मम प्रश्नः कः
चत्वारि पदानि कानि वाट् आर् द फोर् वर्ड्स्
शृणोतु भगिनी शृणोतु किञ्चित् धैर्यम् अपेक्षितम् अस्तु चत्वारि पदानि कानि एकं वाक्यम् अस्ति एकं एकः प्रश्नः अस्ति तत् तस्मिन् प्रश्ने विभक्तिरूपं किम् इति प्रश्नः
द्वितीया विभक्ति बहुवचनम्
इत्युक्ते किम्
कर्मपदम्
इत्युक्ते किम्
पदानि को पदानि को
इत्युक्ते किं सम्पूर्णं वदतु वारि पदानि कानि इत्युक्ते किम्
कौन्सा चारों पदों है
अस्ति चेत् किम्
किस् वाट् आर् द फोर् वर्ड्स् दट्स् वाट् इट् मेण्ट्
वाट् आर् द फोर् वर्ड् अस्ति चेत् विभक्तिरूपं किम्
नो नो इट् इस् कर्मपदम् अस्ति चेत् चत्वारि पदानि कानि किं किं चत्वारि पदं को सो इट् इस् लैक् वाट् आर् फर् वाट् सोरि ऐ नाट् एबल् टु ट्रान्स्लेट् इट्
करोतु
For what two, four words, Babagini?
Two which four words?
Which four words?
Two which four words? Dvitiya asti chet. Prathama asti chet?
Prathama asti chet, what are the four words?
Dvayoho api samichinam. Dvayoho samichinam. Chatvari padani kani ityukte which four words apicha to which four words does the transformation happen to which four words dve api vakye samichinam astu adhuna ekvaram karatu तु इति दत्तम् अस्तु अधुना करोतु परिवर्तनं करोतु
आं भगिनि
पुनः पठतु सम्भाषणं पुनः पठतु आरम्भे आरम्भतः एकवारं पठतु भगिनि
आं भगिनि सो डु ऐ हाव् टु सी फोर् माला एण्ड् गोपालः आल्सो
अस्तु सुधा भगिनी माला अपि च गोपालः शैलजा भगिनी परिवर्तनं कृत्वा एकवारं पठतु
आं भगिनि रमेश न गोपाल गोपाल भवतः परीक्षा समीपम् आगता अस्ति अद्य आरभ्य प्रतिदिनं पठतु
अद्य अहम् आपणं गच्छामि
न भगिनि आपणं कुत्र अस्ति तत्र
मित्रस्य गृहं गच्छामि सो परिवर्तनं कृत्वा
कीदृशपरिवर्तनं भगिनि एकवारं पुनः पठतु रक्तवर्णे पदानि तत्र दत्तं वाक्ये पठतु पुनः इत्युक्ते
एकस्मिन् सम्भाषणे एकं द्वे त्रीणि चत्वारि अत्र रमेशस्य सङ्गीतकक्ष्या सङ्गीतकक्ष्यां प्रतिष्ठस्य पितृव्यस्य इति परिवर्तनं आं भगिनि इति परिवर्तनं कृत्वा सम्भाषणं पुनः लिखतु आम् अवगतम्
अद्य इत्युक्ते किम् एकवारं वदतु
इत्युक्ते मित्रस्य मित्रस्य मध्ये रमेशस्य पदम् इति योजयित्वा योजयित्वा वदामि
उत्तमं मित्रस्य पदस्य
मध्ये
मध्ये न स्थाने मित्रस्य पदस्य स्थाने किं
रमेशस्य रमेशस्य
योजयित्वा
योजयित्वा वदामि
वदामि वदतु पुनः वदतु भगिनि
अद्य अहं रमेशस्य गृहं गच्छामि श्वः आरभ्य पठिष्यामि भगिनि
उत्तमम्
भवतु गोपाल विद्यालये सङ्गीतकक्षा कदा आरभ्य भविष्यति
परश्वः आरभ्य भविष्यति
परश्वः मम अवकाशः न भविष्यति प्रपरश्वः आरभ्य अहम् अपि सङ्गीतकक्ष्यां सङ्गीतकक्ष्याम् आगमिष्यामि
भगिनी पितृव्यस्य पत्रम् आगतं वा
नैव भोः अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती परन्तु न आगतमेव
उत्तमम् उत्तमं पितृव्यस्य दीक्षिका भगिनी अर्थः कः
पितृवस्य पिता के पिता का कुछ रिलेशन है ना मातुलस्य पिता का भाई
माता
नहीं पितृवस्य मातुलस्य पितृवस्य इज इट पिता का भाई
चाचा
चाचा ना पिता का भाई चाचा
चाचा वा ताया वा दैट आई डोंट नो पितृव्यस्य को
नहीं कहीं ताया बोलते हैं कहीं चाचा बोलते हैं
तो पिता का भाई
को बोलते हैं ताया बड़े को बोलते हैं
ताया बड़े को बोलते हैं चाचा छोटे को बोलते हैं छोटे भाई को
अलग अलग जगह बड़े को ज्यादा बोलते हैं
हाँ दादा बोलते हैं बाबा बोलते हैं पितृव्य इत्युक्ते हाँ पिता का कोई भी भाई छोटा बड़ा आई थिंक है ना छोटा बड़ा दोनों इसमें आ जाएंगे आई फील रमेशस्य सङ्गीतकक्ष्या सङ्गीतकक्ष्यां पितृव्यस्य इति परिवर्तनं कृत्वा वयं सम्भाषणं पुनः लिखामः पुनः वदामः उत्तमम् उत्तमम् अवगतं सर्वे
आं भगिनि
आं भगिनि
कोऽपि प्रश्नः अस्ति वा उत्तमम् उत्तमम् अस्तु विरमामः वा गृहपाठरूपेण किं कुर्मः ह्यः तु एकं गृहपाठम् अहं दत्तवती अद्य किं कुर्मः किञ्चित् पुनस्मरणार्थं अष्ट त्रिंशत् तमे पुटे आरभ्यतः अष्टचत्वारिंशत् तमे पुटे किञ्चित् पुनः एकवारं कारयति
भगिनि सो फोर् होम्वर्क् इट् इस् 15.2 कान्वर्सेशन् वी हाव् टु रैट् इट् रैट् भगिनि होम्वर्क्
अहं किं 15.2 तु करोतु एव किन्तु अहं किं वदामि ह्यः अहम् एकं गृहपाठं तु दत्तवती अपि च अद्य किं कुर्मः अष्टत्रिंशत्तमे पुटे आरभ्यतः
भूतकालरूपाणि वा
आरभ्यतः अष्टचत्वारिंशत्तमे पुटे किञ्चित् पुनस्मरणार्थं रिविजन् करोतु
translate please.
Well, one homework I gave yesterday.
Bhagini.
And today what I'm saying, Shumata. 38 to 48, you just revise. You first, you read at least one time, you read.
Yes, Bhagini.
Avagatam sir.
Bhagini.
Astu. अस्तु अन्तिम शान्तिपाठ वीणा भगिनी वदतु.
ॐ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. लोका समस्ता सुखिनो भवन्तु. लोका समस्ता सुखिनो भवन्तु. लोका समस्ता सुखिनो भवन्तु. ॐ सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ हरिशरणम्.
धन्यवादः.
नमस्कारः
सर्वेभ्यः.
नमस्कारः. धन्यवादः भगिनि.
धन्यवादः भगिनि.
नमस्कारः. नमस्कारः पापाजी. धन्यवादः.